एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा राष्ट्रपतिः रामचन्द्र पौडेलः भारतदेशस्य स्थलसेनाधीक्षाय उपेन्द्र द्विवेदिने मानार्थ सेनापतेः चिह्नम् खड्गं च प्रदत्तवान् अस्ति नेपाली सेनायाः परमाधिपतिना राष्ट्रपतिना पौडेलेन ह्यः शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते विशेष समारोहे द्विवेदिने पदीय चिह्नम् प्रदत्तमस्ति समारोहे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः प्रधानमन्त्री केपी शर्मा ओली रक्षामन्त्री मानवीर राई अन्य विशिष्ट महानुभावाश्च उपस्थिता आसन् नेपाल भारतयोर्मध्ये सैनिक सम्बन्धाय नैरन्तर्य प्रदानस्य स्वरूपेण पञ्चाशदुत्तरैकोनविंशतितम ख्रीष्टाब्दात् द्वयोः देशयोः प्रधानसेनापतिभ्याम् मानार्थ महारथि पदस्य प्रदानस्य परम्परा वर्तते प्रधानसेनापतेः अशोकराज सिग्देलस्य नेपालस्य भ्रमणे विद्यमानेन भारतदेशस्य स्थलसेनाध्यक्षेण द्विवेदी इत्यनेन सह द्वयोः देशयोः सैनिकेषु पारस्परिक सहकारे अभिरुचौ च केन्द्रीभूय ह्य वार्ता सम्भूता अस्ति स्थलसेनाध्यक्षस्य द्विवेदिनः अद्य प्रधानमन्त्रिणा केपी शर्मा ओलिना रक्षामन्त्रिणा मानवीर राई इत्यनेन च सह पृथक् पृथक् मेलवार्तायाः कार्यक्रमो वर्तते प्रधानमन्त्री केपी शर्मा ओली उपवेशम् विमर्शनम् प्रशासनिक प्रक्रियाञ्च परित्यज्य जनतया अनुभवनत्वेन कार्यम् कर्तुम् निर्दिशति प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य अन्तर्गतानाम् निकायानाम् वर्तमानार्थिक वर्षस्य प्रथम चातुर्मासिक्याम् प्रगति समीक्षायाम् मन्त्रालय स्तरीय विकास समस्या समाधान समितेः उपवेशे च सम्बद्धानाम् निकायानाम् प्रस्तुतेः श्रवणानन्तरम् प्रधानमन्त्री ओली कार्यशैलीनाम् मानसिकताञ्च परिवर्तितुम् निरदिशत् तदवसरे प्रधानमन्त्री ओली देशविकासस्य प्रतिबद्धताम् प्रकटयित्वा स्वच्छतया पारदर्शितया च कार्यम् विधातुम् निर्दिशन् सुशासनम् संस्थापयितुम् राजस्व प्रश्रवणम् नियन्त्रयितुम् विपन्नताम् निवारयितुम् देशस्य छवेः अभिवृद्ध्यर्थम् साधनस्रोतसाम् उपयोगम् कृत्वा कार्यम् विधातुम् च सम्बद्ध मन्त्रालयान् निकाय प्रमुखाश्च निरदिशत् तदवसरे प्रधानमन्त्रिणा ओलिना सहजतया कार्यकरणाय विधे अवरोध अस्ति चेत् सर्वकारेण द्रुत प्रक्रियया तादृशः विधयः संशोध्यन्ते इति च आश्वासनम् दत्तमस्ति गृहमन्त्री रमेश लेखकः कथयति प्रधानमन्त्रिणः केपी शर्मा ओलिनः आसन्न चीनदेशस्य भ्रमणस्य क्रमे नेपाली कांग्रेस नेकपा एमाले दलयोः संयुक्त विषयाः प्रस्तुष्यन्ते नेपाल प्रेस यूनियन संघस्य कैलाली जनपद शाखया ह्य धनगढ़ी स्थाने आयोजिते पत्रकार सम्मेलने गृहमन्त्री लेखकः सत्तागठक राजनीतिक विपुल दलद्वयस्य पक्षतः भ्रमणात् पूर्वं निर्धारिताः संयुक्त विषयाः एव चीन भ्रमणस्य क्रमे प्रस्तुष्यन्ते इत्यतः बहिः प्रसारिता इव काचन समस्या नास्तीति समस्पष्टयत् देशे राजनैतिक स्थिरतायाः सुशासनस्य समृद्धिश्च पक्षे वर्तमान सर्वकारो स्थिति चर्चयन् गृहमन्त्री लेखकः सत्ता सहकारी प्रमुख दलद्वयस्य मध्ये सम्प्रति कस्मिन्नपि विषये असमन्वयो नास्तीति स्पष्टीकृतवान् लोकतन्त्रस्य संविधानस्य च विरुद्धे विहिताः कथं विधापि गतिविधयः सोढव्या न भवन्तीति चर्चयन् गृहमन्त्री लेखकः प्रमुख दलद्वयस्य मध्ये परस्परं कथं विधापि समस्या न भवतु इत्युक्त्वा केन्द्रात् जनपदस्तरं यावत् दलद्वयस्य प्रतिनिधिभिः सहितं संयन्त्रं निर्मितमस्ति इति स्पष्टीकृतवान् संघ प्रदेश स्थानीय स्तराणां सर्वकारेषु अधिकार कार्यदायित्वानां विहितस्य आवंटनस्य अनुसारेण प्रदेशत्रये मार्ग संजाल सुधार कार्यम् प्रारब्धम् वर्तते नगरीय विकास मन्त्रालयस्य संयोजकत्वे आगामि वर्ष पञ्चकस्य अभ्यन्तरे मधेश कर्णाली सुदूर पश्चिम प्रदेशेषु आसन्न षोडशाब्जानां चतुष्षष्टिः कोटिनांश रूप्यकाणां व्ययस्य मार्ग संजाल सुधार कार्यम् प्रारब्धमस्ति नगरीय विकास मन्त्रालयस्य अन्तर्गतं विश्वकोशस्य ऋणस्य सहयोगेन सञ्चाल्यमानेन प्रादेशिक स्थानीय स्तर मार्ग सुधार कार्यक्रमेण सह सम्बद्धे संविदापत्रे काष्ठमण्डपे आयोजिते कार्यक्रमस्य शुभारम्भ कार्यक्रमे हस्ताक्षराणि विहितानि सन्ति। प्रादेशिक मार्ग सञ्जालस्य सुधारः मार्ग सञ्जालेन सह असम्पृक्तानां स्थानीय स्तराणां केन्द्रस्य मार्ग सञ्जालेन सह योजनं स्थानीय प्रादेशिक सर्वकाराणां क्षमतायाः अभिवृद्धिः संस्थागत सुदृढीकरण चेत्यादयः कार्यक्रमस्य उद्देश्यानि सन्तीति मन्त्रालयेन ज्ञापितं वर्तते। समारोहे उपप्रधान नगरीय विकास मन्त्री प्रकाश मान सिंह अनेन कार्यक्रमेण संघीय लोकतान्त्रिक गणतन्त्रस्य स्थापनायाः पश्चात् स्तरत्रयस्य सर्वकारेषु विकास निर्माणस्य कार्य समन्वयात्मक भूमिकायाः निर्वहणं भविष्यति इति विश्वसितवान्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी भाषते कृषि विकास रणनीतौ समयानुकूलतया परिमार्जनस्य आवश्यकता वर्तते। कृषि विकास रणनीतेः क्रियान्वयन समीक्षायै परिमार्जनाय च ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री अधिकारी देशे संघीयतायाः प्रारभणात् पूर्वं प्रचलितायाः रणनीतेः संघीयतानुकूलतया परिमार्जनं विधातव्यमिति अभाषत। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः संघीय लोकतान्त्रिक गणतन्त्रेण सहितायाः उपलब्धे रक्ष्यायै गणतन्त्रस्य पक्षधरै सर्वै पक्षै एकत्र स्थातव्यमिति धारणां व्यनक्ति। माओवादी केन्द्रस्य गोर्खा शाखया ह्य गोर्खा जनपदे आयोजिते दलस्य अग्रणी नेतृ कार्यकर्तृणां प्रशिक्षण कार्यक्रमे अध्यक्षो दाहालः जनतायाः बलिदानात् प्राप्तस्य गणतन्त्रस्य संरक्षणाय संवर्धनाय च एकी भवितुं सर्वान् अनुरुणत। नेपाली कांग्रेस दलेन देशस्य आर्थिकावस्थायाः तस्याः सुधारस्य च विषयेष् विमर्शनं विधास्यते। अद्य पूर्वाह्नस्य एकादशवादने नया वानेश्वरवर्तिनी संघीय संसद भवनस्य शंकर प्रकोष्ठे निर्धारिते कार्यक्रमे पूर्वार्थमन्त्रिभि राष्ट्रिय योजना आयोगस्य पूर्व पदाधिकारिभि निज क्षेत्रस्य अर्थतन्त्रेण सह सम्बद्धानां संघ संस्थानां पदाधिकारिभिश्च सह विषयेऽस्मिन् विमृक्ष्यते इति नेपाली कांग्रेस दलस्य संसदीय दलस्य प्रमुख श्याम कुमार घिमिरे अज्ञापयत्। आसन्न स्थानीय स्तरस्य उपनिर्वाचनस्य कृते ह्यस्तनात् दिवसात् प्रचार प्रसारौ प्रारब्धौ स्तः। निर्वाचने प्रत्याशितां पंजीकृतवद्भ्य स्वतन्त्रेभ्य दलप्रतिनिधिभ्यश्च प्रत्याशिभ्य निर्वाचन चिह्न प्रदानानन्तरं निर्वाचन आयोगेन ह्यस्तनात् दिवसात् प्रचारस्य प्रसारस्य च अनुमतिः प्रदत्ता अस्ति। निर्वाचन आयोगेन दलगतेभ्य स्वतन्त्रेभ्य प्रत्याशिभ्य निर्वाचन चिह्न प्रदानानन्तरं प्रचार प्रसार प्रारब्धोऽस्ति। निर्वाचन कार्यक्रमानुसारेण ह्यस्तनात् दिवसात् अस्यैव मार्गशीर्ष मासस्य आगामिन त्रयोदश दिवसस्य रात्रौ द्वादश वादन पर्यन्तं निर्वाचनस्य प्रचार प्रसारश्च विधातुं शक्यते। मार्गशीर्ष मासस्य षोडश दिवसे प्रातः सप्तवादनात् पञ्चवादनं यावत् मतदानं भविष्यति इति समाचारः।